एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेकपा एमाले दलस्य आन्तरविवादस्य समाधानाय अध्यक्षस्य प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः वरिष्ठ नेतोः माधव कुमार नेपालस्य च मध्ये ह्यो विहिता वार्ता अनुकूला वर्तते। नक्सालस्थिते होटल मेरियट अतिथिसदने सम्पन्नायं तस्यां वार्तायां विवाद समाधानस्य अन्वेषणाय संघटितस्य कार्यदलस्य कतिचित् सदस्या ह्यस्तनावधि विहितस्य सहमतेः प्रयासस्य विषये संक्षेपेण अज्ञापयन्। वार्तायां सहभागी दलस्य उपाध्यक्ष डा भीमबहादुर रावलः अवदत् दलैकतायाः प्रभावकारी रूपेण परिणामे प्रापणस्य सम्बन्धे गभीररूपेण विमृष्टम् इति हेतोः शीर्षस्तरे कार्यदले च निरन्तरं विमृश्य समाधानम् अवाप्स्यते। वार्तास्थले उपाध्यक्षेण रावलेन सह एमाले दलस्य महासचिव ईश्वर पोखरेलः, संसदीय दलस्य उपनेता सुभाष चन्द्र नेवाङ, उप महासचिव विष्णु प्रसाद पौडेलः, स्थायी समिति सदस्य सुरेन्द्र पाण्डे च सहभागिनः आसन्। शीर्ष नेतृणां मध्ये गत ज्येष्ठ मासस्य द्वितीय दिवसे धृतया सहमत्या दश सदस्यीयं कार्यदलं संघटितम् आसीत्। एतस्य कार्यदलस्य ह्य सिंह प्रासादे उपविष्टेन उपवेशेन प्राप्तानां परामर्शानाम् आधारेण निर्मितं सहमतेः प्रारूपं शीर्षस्तरे प्रस्तुतं सहमति धृता आसीत्। दलाध्यक्षस्य केपी शर्मा ओलिनः महाधिवेशनायोजक समितिं विघटय्य नेत्रा नेपालेन सहितेषु नेत्रेषु विहितं दण्डनं निरस्य च पञ्चसप्तत्यधिक द्विसहस्रतम वैक्रमाब्दस्य ज्येष्ठ मासस्य तृतीय दिवसात् पूर्वं विद्यमानाया सांगठनिक स्थिते आधारेण दल संचालनाय तत्परतायाः अनन्तरं सहमतेर्वातावरणं निर्मितम् अस्ति। एमाले दलस्य केन्द्रीय समिते त्रयोदशोपवेशेन नेपाली कांग्रेस दलस्य सभापते शेरबहादुर देउवाभिदस्य प्रधानमन्त्रीपदे नियुक्ति सम्बद्ध प्रस्तावे विहित हस्ताक्षरेभ्य प्रतिनिधि सभाय विघटनस्य विरूद्धे सर्वोच्च न्यायालये पञ्जीकारिते आदेशाभियाचन निवेदने संलग्नेभ्यश्च दलस्य त्रयोविंशत्ये निवर्तमान संसदेभ्य तैः विहितं हस्ताक्षरणं प्रत्यावर्तयितुं ह्यः सायं पञ्चवादनं यावत् समयः प्रदानस्य सन्दर्भे कार्यदलं सक्रियं सम्भूतमस्ति। तत्पूर्वं प्रधानमन्त्रिणः केपी शर्मा ओलिना पक्षस्य दलस्य वरिष्ठ नेतो माधव कुमार नेपाल पक्षस्य च नेतृणां सहभागितायां सिंह प्रासादे उपविष्टस्य कार्यदलस्य उपवेशस्य पश्चात् उभयोरेव पक्षयोः नेतृभिः विमर्शनं निष्कर्षस्य निकटं प्राप्तम् इत्युक्तम् आसीत्। कार्यदलस्य सदस्य दल प्रवक्ता च प्रदीप ग्यवाली विमर्शनम् अनुकूलम् अवर्तते इति ज्ञापयन् दलाभ्यन्तरे उद्भूतो विवादः अद्ययावत् समाधास्यति इति विश्वासं व्यक्तवान्। कार्यदलस्य सदस्य नेता च गोकर्ण विष्ट विमर्शनम् अनुकूलम् अवर्तते इति ब्रुवन् दले उद्भूतो विवादः समाधानस्य निष्कर्षोन्मुखो स्थिति अज्ञापयत्। निर्वाचनायोगेन जनता समाजवादी पार्टी नेपाल जसपा दलस्य विवादस्य निरूपणाय न्यायपीठं संघटितं वर्तते। आयोगस्य पदाधिकारिणां ह्यस्तनोपवेशन प्रमुख निर्वाचनायुक्तस्य दिनेश कुमार थपलिया विदस्य नेतृत्वे पञ्चसदस्यीयं न्यायपीठं संघटितमस्ति। आयोगेन श्रवणाय आगामिनः श्रावण मासस्य तृतीय दिवसे रविवासरे पक्षद्वयमेव आभातुं निर्णीतमिति आयोगस्य प्रवक्ता राजकुमार श्रेष्ठः अज्ञापयत्। राजनीतिक दल सम्बद्धस्य अधिनियमस्य अनुसारेण परह्यः मंगलवासरे पक्षद्वयम् आहूय सहमतेः प्रयास विहितः सन्नपि सहमति प्राप्तेः अभावात् श्रवणाय न्यायपीठं संघटितमिति प्रवक्ता श्रेष्ठः ज्ञापितवान्। पूर्व माओवादी दलस्य नेतृभि नेकपा माओवादी केन्द्रस्य दल पञ्जीकरणस्य निरस्तीकरणम् अभियाच्य निर्वाचनायोगे निवेदनं प्रदत्तं वर्तते। अधिवक्त्रा सरोज बुढाथोकी इत्यनेन हस्ताक्षरितं निवेदनं प्रदातुं ह्य अधिवक्त्रा बुढाथोकी इत्यनेन सह एमाले दलस्य नेतृद्वयं लीलबहादुर थापा रामचन्द्र मण्डलश्च आयोगं प्राप्ताः आसन्। प्रति पञ्चवर्षं महाधिवेशनं समायोजनीयम् इति स्थितौ माओवादी दलेन 69,200 वैक्रमाब्दात् महाधिवेशनं न आयोजितम्। 73,200 वैक्रमाब्दस्य श्रावण मासस्य त्रयोदशे दिवसे दलैकतायाः नाम्नि आयोगे मिथ्या विवरणं प्रस्तुतं च अस्थिति निगद्य माओवादी केन्द्रस्य एकतां निरस्तीकर्तुम् अभियाचितमिति निवेदने उल्लिखितं वर्तते। नेपाले कोरोना संक्रमणस्य पुष्टेः प्रतिशतं वर्धमानम् अस्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य नियमित संचार संक्षेप कार्यक्रमे प्रवक्ता कृष्ण प्रसाद पौडेल ह्य आराष्ट्रं विहित परीक्षणेषु जनेषु प्रतिशतं 0.75% जनेषु कोरोना संक्रमणं पुष्टिभूतम् अस्तीति अज्ञापयत्। अत्रान्तरे ह्य आराष्ट्रं नवत्यधिक नवशतेच जनेषु कोरोना संक्रमण पुष्टिभूतं वर्तते। ह्य अतिरिक्ता सहस्रं त्रयस्त्रिंशदधिक शतत्रयञ्च जना कोरोना संक्रमणात् मुक्ता। ह्य अतिरिक्ता अष्टाविंशतिर्जना कोरोना संक्रमणेन मृता सन्ति। एतदन्व नेपाले हस्तनावधि संक्रमणेन मृतानां जनानां समग्र संख्या नवसहस्राणि एकनवत्यधिक शतद्वयञ्च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। ललितपुरे भेरोसिल टीकाकरणस्य द्वितीय मात्रा श्व शुक्रवासरे परश्व शनिश्चरवासरे च आधाता। कोरोना महामार्याः रक्षणाय प्रथम मात्रायाः वित टीकाकरणेभ्यः षष्टितः चतुष्षष्टि वर्ष वयः समूहस्य नागरिकेभ्यः श्व आषाढस्य पञ्चविंशे परश्व षड्विंशे च दिवसयोः टीकाकरणमेतद् विधास्यमानं वर्तते इति समाचारः।